तृतीयोऽध्याय संजय उवाच तान् तथा कृपयावेष्ट मास्तु पूर्णाकुलेक्षणम् विशीदन्तमिदं वाक्य उवाच मधुसूदन श्रीभगवान् उवाच उत स्वाकस्मलमिदम् विषमे समुपस्थितम् अनार्यजोष्टमा स्वर्ग्य न कीर्तिकरमार्जुन लैव्यम् आस्मगमः पार्थ नैतत्त्वय्युपपद्यते क्षोद्रम् हृदय दौर्बल्यम् त्यक्तोत्तिष्ठ परन्तप अर्जुन उवाच कथम् भीष्ममहम् सङ्ख्ये द्रोणाम् च मधुसूदन इशुभेः प्रतियोत्स्यामि पूजार्हवरिसूदन गुरुनः त्वा हि महानुभावान् श्रेयो भोक्तुम् भैक्ष्यमपि हलोके हत्वार्थकामास्तु गुरुनिहैव भुञ्जीय भोगान् रुधिरप्रदीपान् न चैतद्विद्वाः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु यानेव त्वा न जिजीविषामा एव स्थितः प्रमुखे धर्तराशा कार्मण्यदोषो वहत स्वभाव प्रेत्सामि त्वाम् धर्मसामूढसेवा यस्येयस्यान्मे स्थितम् ब्रूहितान्मे शेष्यस्तेऽहं साधिमान् त्वाम् प्रपन्नम् न हि प्रपश्यामि ममापनुव्यत् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि साधिपत्यम् संजय उवाच एवमुक्त्वा ऋषिकेशम् गुडाकेश परन्तप न योत्स्य इति गोविन्द मुक्त्वा तूष्णीं बभूव त्वमुवाच ऋषिकेश प्रहसन्नेव भारत सेनयोरुभयोर्मध्ये विशीदन्तमिदं वच श्रीभगवान् उवाच अशोच्यानन्वशोचस्त्वम् यज्ञवादांश्च भाषसे गतासो न गतासोश्च नानुशोचन्ति पण्डिताः न त्वेवाहं जातु नाशम् न त्वं ने मे जनाधिपा न चैव न भविष्याम सले वयमतपरम् देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ते धीरस्तत्र न मोह्यति मात्रा स्पर्शास्तु पौन्तेय शीतोष्णसुखदुःखदा आगमापायिनो नित्यास्तांस्थिति क्षस्व भारत यां हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ समदुःखसुखौ धीरम् सोमृतत्वाय कल्पते नासतो विद्यते भावो नाभावो विद्यते सत उभयोरभिदृष्टोऽन्त स्तनयोस्तत्त्वदर्शि अविनाशितु तद्विद्धि येन सर्वमिदं ततं विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति आन्तवान्तयिने देहा नित्यस्योक्ता शरीरिणा अनाशिनो प्रमेयस्य तस्माद्युध्य स्वभारत येनं वेत्ति हन्तारं यस्तैनं मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते न जायते म्रियते वा कदाचिन् नायं भूत्वा भवितावान् भूय अजो नित्य शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेदाविनाशिनं नित्यं ययेनमजमव्ययं कथं स पुरुषः पार्थ कं घातयति हन्तिकम् वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णा नान्यानि संयाति न वानि देहि नैनं छिन्दन्ति शस्यानि नैनं दहति पावक न चैनं क्लेदयन्त्यापो न शोषयति मारुत अच्छेद्योयमदायोय मक्लेद्यो शोष्य एव च नित्य सर्वगतस्थानो रचलोऽयं सनातन अव्यक्तोऽयमचिन्त्योय न विकायोऽयमुच्यते उच्यते तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि अथ चैनं नित्यजातं नित्यं वामान्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्ममृतस्य च तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवना आश्चर्यवत् पश्यति कश्चिदेन माश्चर्यवत् वदति तथैव चान्या आश्चर्यवच्चैनमन्य शृणोति श्रोत्वाप्येन वेदन चैव कश्चित् देहि नित्यमवधूयम् देहि सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि स्वधर्ममपि चावीक्ष्य न विकम्पितुमर्हसि धर्म्याद्धियुद्धास्येजोन्य क्षत्रियस्य न विद्यते यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं सुखिनः क्षत्रियाः पार्थ दभन्ते युद्धमीदृशम् अथ ते त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिञ्च हेत्वा पापमवाप्स्यसि अकीर्तिञ्चाभिभूतानि कथयिष्यन्ति ते व्ययाम् सम्भावितस्य चाकीर्ति मरणादतिरिच्यते भयाद्रणादुपरतम् मांस्यन्ते त्वां महारथा येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् अवाच्यवादाश्च बहून् वदिष्यन्ति तवाहिता नन्दन्तस्तव सामर्थ्यम् ततो दुःखतरं किम् अतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसि महीम् तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय सुखदुःखे समीकृत्वा लाभालाभौ जया जयौ ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि तेषातिभिहिता साङ्ख्ये बुद्धिर्योगेऽपि मां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमाप्यस्य धर्मस्य त्राजते महतो भयात् व्यवसायात्मिका बुद्धि ऋग्वेह कुरु नन्दन बहुशाखाह्यनन्तास्त बुद्धयो व्यवसायिनां यामिमां पुष्पितां वाचं प्रभुदान्त्यविवस्थित वेदवादरता पार्थ नान्यदस्तीतिवादिनां कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति भोगैश्वर्यप्रसक्तानां तया वर्धितचेतसां व्यवसायात्मिका बुद्धि समाधौ न विधीयते त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुनो निर्द्वन्द्वो नित्यसत्त्वस्तु निर्योगक्षेम आत्मवान् यावानार्थ उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानत कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुः मा ते सङ्गोस्त्वकर्मणि योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समात्मं योग उच्यते दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्वेक्ष कृपणाः फलहेतव बुद्धियुक्तो जहातिह गुहे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगकर्मसु कौशलम् कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणा जन्मबन्धविनिर्मुक्ता पदं गच्छन्त्यनामयम् यदा ते मोहकलिलम् व्यतितरिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च श्रुतिवे प्रतिपन्नते यदा स्थास्यति निस्तदा समाधावचला बुद्धि सदा युगम वाप्स्यसि। अर्जुन उवाच हित प्रज्ञस्य का भाषा समाधेस्तस्य केशव सिद्धिः किं प्रभाषेत किमासीत व्रजेत किम्। श्री भगवान उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् आत्मन्येवात्मना तुष्ट स्थितः प्रज्ञस्तदुच्यते दुःखेष्वनोद्विग्नमना सुखेषु विगत स्पृह वीतरागभय क्रोध स्थितधीर्मनिरुच्यते यः सर्वत्रानभिस्नेह सत्तत्प्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता। यदा संहरति चायम् कूर्मोऽङ्गानि वा सर्वश इन्द्रियाणेन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता। विषया विनिवर्तन्ते निराहारस्य देहिना रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय पुरुषस्य विपस्थित इन्द्रियाणि प्रमाथिनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य युक्त आसीतमात्पर वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। ध्यायतो विषयान् पुंस सङ्गस्तेषु उपजायते सङ्गात् सञ्जायते काम कामात् क्रोधोऽभिजायते क्रोधाद्भवति सम्मोह सम्मोहास्मृतिविभ्रमः स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशप्रणश्यति रागद्वेषवियुक्तैस्तु विषयानेन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसूयासु बुद्धिः पर्यवतिष्ठते नास्ति बुद्धिर्युक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्ति रसान्तस्य कुतः सुखम् इन्द्रियाणां हि चरतां यान्मनोऽनुविधीयते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वश इन्द्रियाणीन्द्रियाधेव्य स्वस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जागर्ति भूतानि सा निशा पश्यतो ने आपूर्यमाणमचल प्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् तद्वत् कामायं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकवि विहाय कामान्य सर्वान् उमांश्चरति निःस्पृह निर्ममो निरहङ्कार स शान्तिमधिगच्छति एषा ब्राह्मे स्थिति पाथ नैनां प्राप्य विमोह्यति स्थित्वा श्यामान्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ब्रह्मनिर्वाणमृच्छति ॐ तत्सत् श्रीमद्गीतासूपनिषत्पूर्वं विद्यायां शास्त्री श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम